सौराष्ट्रे सोमनाथं च श्रीशैले मल्लिकार्जुनम् उज्जयिन्यां महाकालम् ओंकारम् ममलेश्वरम् केदारम् हेमवतपृष्ठे डाकिन्यं धूमशंकरम् वाराणस्यं च विश्वेशं त्र्यम्बकं गौतमीतटे वैद्यनाथं चिताभूमौ नागेशं तरुकावने चतुर्वन्दचरामेशं घुष्मशं च शिवालये द्वादशैकानि नामानि कथरुत्थाय पठत् सर्वपाप विनिर्मुक्ता सर्वसिद्धि फलो भवेत्। त्वमेव माता च पिता त्वमेव त्वमेव बन्धुश्च सखा त्वमेव त्वमेव विद्याद्रवणं त्वमेव त्वमेव सर्वं मम देवदेव। सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुर्भाग् भवेत्।